श्रीमद्गृध्रसरस्तीर पारिजातमुपास्महे यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् श्रीमद्गृध्रसरस्तीर पारिजातमुपास्महे यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् गुरुभिस्त्वदनन्य सर्वभावैः गुणसिन्धौ कृतसम्प्लवस्त्वदीये रणपुङ्गव वन्दिभावमिच्छन् अहमस्मीकमनुग्रहास्पदं ते भुवनाश्रय भूषणास्त्रवर्गम् मनसि त्वन्मयतां ममातनोतु वपुराहव पुङ्गव त्वदीयम् महिषीनाम निमेषदर्शनीयम् अभिरक्षितुमग्रतस्थितं त्वाम् प्रणवे पार्थरते च भावयन्तः अहितप्रशमैरयत्नलभ्यैः कथयन्त्याह वपुङ्गवम् गुणज्ञाः कमला निरपाय धर्मपत्नी करुणाध्या स्वयमृत्विजो गुणास्ते अवनम् श्रयतामहीनमाध्यम् स च धर्मस्त्वदनन्यसेवनीयः कृपणासुदयः कृपासहायम् शरणम् त्वाम् रणपुङ्गव प्रपन्नाः अपवर्गनयात् अनन्यभावाः वरिवस्यारसमेकमाद्रियन्ते अवधीर्य चतुर्विधम् पुमर्थम् भवदर्थे विनियुक्त जीवितः सन् लभते भवतः फलानि जन्तुः निखिलान्यत्र निदर्शनम् जटायुः शरणागत रक्षणव्रतीमाम् न विहातुम् रणपुङ्गवार्हसि त्वम् विदितम् भुवने विभीषणो वा यदि वा रावण इत्युदीरितम् ते भुजगेन्द्रगरुत्मदादिलभ्यैः वदनज्ञानुभवप्रवाहभेदैः स्वपदे रणपुङ्गवः स्वयम् मे परिचर्या विभवै परिष्क्रियेथाः विमलाशय वेङ्कटेश जन्मा रमणीया रणपुङ्गव प्रसादात् अनसूयुभिरादरेण भाव्या परमार्थस्तुतिरन्वहम् प्रपन्नैः विमलाशय वेङ्कटेश जन्मा रमणीया रणपुङ्गव प्रसादात् अनसूयुभिरादरेण भाव्या परमार्थस्तुतिरन्वहम् प्रपन्नैः।